कर्तव्यं न तु भारः। पूर्वं कश्चित् मुनिः आसीत्। कस्यचित् पर्वतस्य उपरि तस्य आश्रमः आसीत्। सः मुनिः महान् साधकः अपि। असहायेषु दरिद्रेषु च तस्य महती प्रीतिः आसीत्। सर्वस्मात् प्रदेशात् अपि जनाः तस्य आश्रमम् आगत्य स्वसमस्यानां परिहारं ततः प्राप्नुवन्ति स्म। मुनिः अपि यदा कदा वा ग्रामान्तरम् अपि गत्वा दीनानां दरिद्राणां च सहायं करोति स्म। एकदा मूलादीनाम् अन्वेषणार्थं मुनिः स्वशिष्येण सह समीपे विद्यमाने अरण्ये अटन् आसीत्। मार्गायासं परिहर्तुं गुरुशिष्यौ एकस्याः शिलायाः उपरि उपविष्टवन्तौ। किञ्चित् कालं यावत् तौ द्वौ अपि तत्र विश्रान्तिं स्वीकृत्य ततः प्रस्थितवन्तौ। मुनिः वृद्धः आसीत्। तस्य शिष्यस्य पृष्ठभागे मूलादीनाम् एका ग्रन्थिः आसीत्। द्वौ अपि मन्दं मन्दं गच्छन्तौ आस्ताम्। तावति काले तेन मार्गेण एव काचित् बालिका आगच्छन्ती आसीत्। तस्याः कट्याम् एकः शिशुः अपि आसीत्। सा महता सन्तोषेण आगच्छन्ती आसीत्। तस्याः मुखे श्रान्त्याः चिह्नं किञ्चिदपि न दृश्यते स्म। सा दूरात् एव मुनिं दृष्ट्वा तस्य समीपम् आगतवती। तस्य नमस्कारं कृतवती। मुनिः तस्याः आशीर्वादं कुर्वन् आयुष्मती भव इति उक्तवान्। वत्से, भवत्याः नाम किम् इति पृष्टवान्। सा बालिका स्वनाम उक्तवती। पृष्ठे भारं वहन्ती अपि भवती सन्तोषेण गच्छन्ती अस्ति। किं भवत्याः कष्टं न भवति इति मुनिः पुनः पृष्टवान्। बालिका आश्चर्येण भारः कुत्र अस्ति इति पृष्टवती। मुनिः उक्तवान्, भवती शिशुं स्वपृष्ठे स्थापयित्वा गच्छन्ती अस्ति खलु, सः भारः एव ननु इति। तदा बालिका आश्चर्यं प्रकटयन्ती, भगवन् एषः तु मम अनुजः, मया तु किञ्चिदपि भारः न अनुभूयते, भारः तु भवतः पार्श्वे अस्ति इत्युक्त्वा सा अग्रे गतवती। बालिकायाः गमनानन्तरं मुनिः शिष्यम् उक्तवान्, वत्स, यदा वयं कर्तव्यभावनया प्रेरिताः भवेम तदा कार्यभारं न अनुभवेम इति। गुरोः वचनं शिष्यः अपि अङ्गीकृतवान्।